पुण्यात् भिन्नरूपम् भवति भुवने हीनाद्योत्तमम् यत् ज्ञानम् श्रद्धा च कर्ता वसतिरपि च सुखम् कर्म चाहारभेदः त्वच्छेत्रत्वम् निषेवादि तु यदिक पुनः त्वत्परम् तत्तु सर्वम् प्राहो नैगुण्यनिष्टौ तदनु भजनतो मंसु सिद्धो भवेयौ त्वय्येव ज्ञस्तचित्त सुखमयि विचर सर्वचेष्टा स्वदत्तम् त्वद्भक्तैः सेव्यमानान् अपि चरितचरान् आश्रयन् पुण्यदेशः दस्यौ विप्रे मृगादिष्वपि च समवतिर्मुच्यमानावमानस्पर्धासूयादि दोष सततमखिल भूतेषु सम्पूजये त्वाम् त्वद्भावो यावदेषु स्फुरति न विशदम् तावदेवम् सुपास्तिम् कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहम् चरेयम् त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणासस्तस्मात् सर्वात्मनैव सदिश मम विभो भक्तिमार्गौ मनोज्ञौ तम् चैनम् भक्तियोगम् दृढयितुमयि मे साध्यमारोग्यमायुर्दृष्ट्या तत्रापि सेव्यम् तव चरणमहो भेषजायेव दुग्धम् मार्कण्डेयो हि पूर्वो गणक निगदित द्वादशाब्दायुरुच्चैः सेवित्वा वत्सरम् त्वाम् तव भटनि वहे द्रावयामास मृत्यो मार्कण्डेयश्चिरायुः सकलु पुनरपि त्वत्पर पुष्पभद्रातीरे निन्ये तपस्यन्नतुल सुकरति षट्टु मन्मन्तदानी देवेन्द्र सप्तमस्तौ सुरयुवतिमरुन्मन्मतै मोहयिष्य योगो स्वपृष्यमाणै न तु पुनरशक त्वज्जनम् निर्जयेत् कः प्रीत्या नारायणाख्यस्त्वमत नरसकः प्राप्तवानस्य पार्श्वो तुष्ट्या तोष्टूयमानः स तु विविधवरे लोभितो नानु मेने द्रष्टुम् मायाम् त्वदीयाम् किल पुनरवृणोद्भक्तितृप्तान्तरात्मा माया दुःखानभिज्ञस्तदपि मृगयते मूलमाश्चर्यहेतो याते त्वय्याशुवाता कुलजलदगलत्पूयपूर्णाति गूर्णः सप्तार्णो राशि मग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः दीन प्रैक्षिष्ट दूरे वटदल शयनम् कञ्चिताश्चर्य बालौ त्वामेव श्यामलाङ्गौ वदन सरसि जन्यस्त्रपादाङ्गुलीकौ दृष्ट्वा त्वाम् हृष्टरोमा त्वरितमविगतः स्प्रष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्ट पुनरिक सकलम् दृष्टवान्विष्टपौघो भूयोऽपि श्वासवातैर्बहिरनुपदितो दीक्षित त्वत्कटाक्षैः मोदातास्मेष्टु कामस्त्वयि पिहितमतनौ स्वाश्रमे प्राग्वदासीत् गौर्या सार्धम् तदग्रे पुरभिदत गतस्त्वत्प्रिय प्रेक्षणार्ति सिद्धा निवास्य दत्त्वा स्वयमयमजरा मृत्युता दीर्घतो भूत् एवम् त्वत्सेवयैव स्मरणि पुरपि स प्रीयते येन तस्मान्मूर्तित्रय्यात्मकत्वम् ननु सकल नियन्तेति सुव्यक्तमासीत् त्रेणुषेऽस्मिन् सत्यलोके विधिहरिपुरभिन् मन्दिरान्यूर्ध्वमूर्ध्वम् तेभ्यो व्यूर्ध्वम् तु माया विकृतिविरहितो भाति वैकुण्ठलोकः तत्र त्वम् कारणामस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि माम् सर्वरोगा।